अथ द्वितीयः पादः। तेन रक्तम् रागात् लाक्षारोचनाशकलकर्दमाट्ठक् नक्षत्रेण युक्तः कालः लुबविशेषे संज्ञायाम् श्रवणाश्वत्थाभ्याम् द्वन्द्वाच्छः दृष्टम् सामा कलेर्ढक् वामदेवाड्यड्यौ परिवृतो रथः पाण्डुकम्बलादिनिः द्वैपवैयाघ्रादै कौमारापूर्ववचने तत्रोद्धृतममत्रेभ्यः स्थण्डिलाच्छैतरिव्रते संस्कृतम् भक्षाः शूलोखाद्यत् दध्नष्ठक् उदश्वितोऽन्यतरस्याम् क्षीराढ्यै सास्मिन्पौर्णमासीति आग्रहायण्यश्वत्थाट्ठक् विभाषा फाल्गुनी श्रवणा कार्तिकी चैत्रीभ्यः सास्य देवता कस्येत् शुक्राद्घन् अपोनप्त्रपाम् नप्तृभ्याम् घः छच महेन्द्राद्घाणौ च सोमाट्यन् वायुवृतुपितृशसो यत् द्यावा पृथिवीशुनासीरमरुत्वदग्निशोमवास्तोष्पतिगृहमेधाच्छच अग्नेर्ढक् कालेभ्योऽभवत् महाराजप्रोष्ठपदाट्ठै पितृव्यमातुलमातामहपितामहाः तस्य समूहः भिक्षादिभ्योऽण् गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वै केदाराद्यै च ठञ्कवचिनश्च ब्राह्मणमाणववाडवाद्यत् ग्रामजनबन्धुभ्यस्तल् अनुदात्तादेरै खण्डिकादिभ्यश्च चरणेभ्यो धर्मवत् अचित्तहस्तिधेनोष्ठक् केशाश्वाभ्याम् यैछावन्यतरस्याम् पाशादिभ्यो यः खलगोरथात् इनित्रकट्यचश्च विषयो देशे राजन्यादिभ्यो वै भौरिक्याद्यैषु कार्यादिभ्यो विदल्भक्तलौ सोऽस्यादिरितिच्छन्दसः प्रगाथेषु सङ्ग्रामे प्रयोजनयोद्धृभ्यः तदस्याम् प्रहरणमिति क्रीडायाम् नः घयः सास्याम् क्रियेति ञः तदधीते तद्वेदा क्रतूक्थादिसूत्रान्ताट्ठक् क्रमादिभ्यो वुन् अनुब्राह्मणादिनिः वसन्तादिभ्यष्ठक् प्रोक्ताल्लुक् सूत्राच्चकोपधात् छन्दो ब्राह्मणानि च तद्विषयाणि तदस्मिन्नस्तीति देशे तन्नाम्नि तेन निर्वृत्तम् तस्य निवासः अदूरभवश्च ओरै मतोश्च बह्वजङ्गात् बह्वचः कूपेषु उदक्च विपाशः सङ्कलादिभ्यश्च स्त्रीषु सौवीरसाल्वप्राक्षु सुवास्त्वादिभ्योऽण् रोणी कोपधाच्च वैच्छण्कठजिलसेनिरढैन्यायाफक्फिञ्यकक्ठकोरीहणकृशाश्वर्ष्य कुमुदकाशतृणप्रेक्षाश्मसखि सङ्काशबलपक्षकर्णसुतङ्गमप्रगतिन्वराः कुमुदादिभ्यः जनपदे लुप् वरणादिभ्यश्च शर्करायावा वा ठक्छौ च नद्याम् मतुप् मध्वादिभ्यश्च कुमुदनडवेतसेभ्योड्मतुप् नडशादाड्वलच् शिखायावलच्। उत्करादिभ्यश्चः नडादीनां कुक्च शेषे राष्ट्रावारपाराद्घकौ ग्रामाद्यखयौ कत्र्यादिभ्यो ढकञ् कुलकुक्षिग्रीवाभ्यश्वास्यलङ्कारेषु नद्यादिभ्यो ढक् दक्षिणापश्चात्पुरसस्त्यक् कापिश्याष्फक् रङ्कोरमनुष्येञ्च द्युप्रागपागुदक्प्रतीचोयत् कन्थायाष्ठक् वर्णौवक् अव्ययात्यप् ऐषमो ह्यश्वसोऽन्यतरस्याम् तीररूप्योत्तरपदादञ्यौ दिक्पूर्वपदादसंज्ञायाम् न्यः मद्रेभ्योऽ उदीच्य ग्रामाच्च बह्वचोऽन्तोदात्तात् प्रस्थोत्तरपदपलद्यादिकोपधादण् कण्वादिभ्यो गोत्रे इयश्च नद्व्यचः प्राच्यभरतेषु वृद्धाच्छः भवतष्ठक्षसौ काश्यादिभ्यष्ठञ्ठौ वाहीकग्रामेभ्यश्च विभाषोशीनरेषु ओर्देशेठञ् वृद्धात् प्राचाम् धन्वयोपधाद्वञ् प्रस्थपुरवहान्ताच्च रोपधेतोः प्राचाम् जनपदतदवध्योश्च अवृद्धादपि बहुवचनविषयात् कच्छाग्निवक्त्रवर्तोत्तरपदात् धूमादिभ्यश्च नगरात्कुत्सनप्रावीण्ययोः अरण्यान्मनुष्ये विभाषाकुरुयुगन्धराभ्याम् मद्रवृज्योः कन् कोपधादण् कच्छादिभ्यश्च मनुष्यतत्स्थयोर्वञ् अपदातौ साल्वात् गोयवाग्वोश्च गर्तोत्तरपदाच्छः गहादिभ्यश्च प्राचाङ्कटादेः राज्ञः कच वृद्धादकेकान्तखोपधात् कन्थापलदनगरग्रामह्रदोत्तरपदात् पर्वताच्च विभाषामनुष्ये कृकणपर्णाद्भारद्वाजे इति द्वितीयः पादः।